सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। धनहीनो न हीनश्च धनिकः स सुनिश्चयः, विद्यारत्नेन हीनो यः स्वहीनः सर्ववस्तुषु। इत्युक्ते यस्य पार्श्वे धनमस्ति सः धनिकः, यस्य पार्श्वे धनं नास्ति सः धनहीनः अथवा दरिद्रः। यदि सः निर्धनः इत्युक्ते तस्य पार्श्वे किमपि नास्ति वा, सः सर्वेषु विषयेषु हीनः वा? न, तथा वक्तुं न शक्यं। तथा एव यः धनिकः अस्ति चेत् तस्य पार्श्वे धनमस्ति इति कृत्वा सः सर्वेषु विषयेषु धनिकः इत्यपि वक्तुं न शक्यम्। इत्यपि सः धनिकः इति भूत्वा सः अन्येषु विषयेषु अपि, अन्येषु वस्तुषु अपि धनिकः इति निश्चितरूपेण वयं वक्तुं न शक्यम् इत्युक्ते। परन्तु अत्र सुभाषितकारः वदति एकः विषयः तु निश्चितरूपेण वयं वक्तुं शक्नुमः। तत् किमित्युक्ते यः विद्यारत्नेन हीनः सः सर्ववस्तुषु हीनः। इत्युक्ते यः यस्य पार्श्वे विद्याधनं नास्ति सः साक्षात् धनहीनः इति वयं निश्चितरूपेण वक्तुं शक्नुमः। एतादृशानि सुभाषितानि संस्कृतभाषायां बहूनि सन्ति। तेषाम् अवगमनार्थं संस्कृतभाषायाः अवगमनम् आवश्यकम्। अतः वयं सर्वे मिलित्वा अत्र संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः। सम्यक्। अनन्तरम् अत्र गते सप्ताहे वयं भविष्यत्कालरूपाणां विषये किञ्चित् अधीतवन्तः। भविष्यत्कालरूपाणि इत्युक्ते लृट्लकाररूपाणि, तेषां विषये किञ्चित् ज्ञातवन्तः। अपि च भविष्यत्कालरूपाणां विषये वयम् एकां कथां पठामः अद्य। किमर्थमित्युक्ते तस्यां कथायां बहूनि भविष्यत्कालरूपाणि योजितानि सन्ति। तत्र न केवलं कथायाः अवगमनं परन्तु व्याकरणविषयान् अपि परिशीलयामः। गते सप्ताहे अन्यः विषयः इत्युक्ते सम्बोधनारूपाणि इति एकः विषयः आरब्धः। तस्मिन् विषये किञ्चित् कालं चिन्तनं कृत्वा तदनन्तरं वयं अभ्यासपुस्तके किं दत्तमस्ति इति पठामः। प्रथमतया किञ्चित् गृहपाठः कः इत्यस्मिन् विषये चिन्तनं कुर्मः। अत्र कादम्बरी भगिनी, भवती वदतु, भवती कृतवती वा?
आं भगिनि।
श्रावयतु, किं कृतवती?
अहं सम्बोधनरूपाणि अहं
तत्र अभ्यासः अस्ति तत्र अभ्यास सर्वं सर्वे अभ्यासपुस्तकं पश्यन्तु। प्रथमतया अत्र त्रिचत्वारिंशत्तमे पुटे, पेज् 43, तस्मिन् पुटे सम्बोधनारूपाणि दत्तानि अत्र। सम्बोधनारूपाणि तेषां विषये अहम् एकं वक्तुमिच्छामि। अहं पूर्वमपि उक्तवती परन्तु एकवारं पुनस्मरणरूपेण अहं वदामि। किम् इत्युक्ते सम्बोधनारूपाणि एकवचने एव प्रथमाविभक्तितः भिन्नानि भवन्ति। अत्र वयं जानीमः सप्तविभक्तयः सन्ति संस्कृतभाषायाम्। अपि च अत्र एकवचने रूपाणि सन्ति प्रथमाविभक्त्यन्तरूपाणि, परन्तु अत्र सम्बोधनारूपाणि प्रथमाविभक्तितः किञ्चित् भिन्नानि भवन्ति, केवलम् एकवचने एव। द्विवचने बहुवचने रूपाणि यथावत् इत्युक्ते यथा प्रथमाविभक्त्यन्तरूपाणि सन्ति तथा एव द्विवचने अपि च बहुवचने भवन्ति। अन्यः विषयः अस्ति सम्बोधनारूपाण सम्बोधनारूपात् पूर्वम् अत्र कानिचन अव्ययपदानि योजयित्वा वयं सम्बोधनं कुर्मः. कीदृशपदानि इत्युक्ते हे भोः अये अयि रे एतानि पदानि सम्बोधनरूपात् पूर्वं योजयित्वा वयं सम्बोधनं कुर्मः. कथम् इत्युक्ते भो शम्भो तथा वदामः, हे कृष्ण हे राम तथा वदामः, नो चेत् अयि गौरी तथा वदामः. इत्युक्ते सम्बोधनरूपाणां विषये अत्र अभ्यासपुस्तके एतावदेव एतदेव दत्तमस्ति, परन्तु अग्रे गत्वा इतोपि अन्यान् विषयान् ज्ञातुं शक्नुमः. अत्र प्रथमतया अभ्यासं कुर्मः. कादम्बरी भगिनी अत्र प्रथमं वाक्यं वदतु.
मित्र, भवान् कुत्र गच्छति?
इत्युक्ते अत्र उदाहरणत्वेन दत्तमस्ति. अत्र किम् अभवत्? अत्र परिवर्तनं कथम् अभवत् अत्र वदतु. इत्युक्ते अत्र सम्बोधनरूपं मित्र, तत्र मकारः लुप्यते, मकारः न दृश्यते, मकारः नास्ति तत्र. सम्बोधनरूपं मित्र, परन्तु प्रथमाविभक्त्यन्तरूपाणि रूपं मित्रं. द्वितीयं करोतु.
भगिनी अत्र आगच्छतु.
अत्र किम् अभवत्?
ह्रस्वकारः भवति.
सुन्दरम्. इत्युक्ते दीर्घ ईकारः ह्रस्व ईकारः अभवत्. इत्युक्ते अत्र यदि वयं ईपत्रं वा किमपि लिखामश्चेत् तदा भगिनी एव लेखनीयं, न तु भगिनी. अत्र भगिनी इति रूपं प्रथमाविभक्त्यन्तरूपं, परन्तु सम्बोधनरूपं भगिनी. तृतीयं करोतु.
मन्ये कृपया एतत् पाठयतु.
अत्र किम् अभवत्? उत्तमम्. इत्युक्ते अत्र पदम् आकारान्तपदम्, आकारान्त स्त्रीलिङ्गपदमस्ति चेत् तदा किं भवति? मान्ये भवति. लता किं भवति वदतु.
लते.
उत्तमं. रमा किं भवति?
रमे.
उत्तमं. तथा एव अत्र मान्या इति दत्तमस्ति, मान्ये भवति. चतुर्थं वाक्यं पठतु.
अस्तु. कृष्ण कोलाहलं मा करोतु.
अत्र किम् अभवत्?
कृष्णः विसर्गः न भवति.
विसर्गः नास्ति. उत्तमम्. भगिनि अहम् एकं प्रश्नं पृच्छामि. अत्र अत्र वाक्यमस्ति कृष्ण कोलाहलं मा करोतु. अस्मिन् वाक्ये कर्मपदमस्ति वा? कर्मपदं किम्?
कोलाहलं.
सर्वे शृण्वन्तु, अत्र कादम्बरी भगिनी वदन्ती अस्ति अत्र कोलाहलः प्रथमाविभक्तिरूपं कोलाहलः, परन्तु अत्र कोलाहलं इत्युक्ते द्वितीयाविभक्ति अन्तरूपं दत्तमस्ति. अस्तु महोदय, अग्रिमं वाक्यं पञ्चमं करोतु भगिनि.
अस्तु, लक्ष्मी भवती अपि आगच्छति वा?
वदतु, किम् अभवत्?
विसर्गः अपि दीर्घः कारः न भवति.
अत्र परिवर्तनद्वयम्, अत्र किम् अभवत्? विसर्गः लुप्यते, अपि च दीर्घईकारः ह्रस्वईकारः अभवत्. लक्ष्मीः इति पदस्य सम्बोधनारूपं लक्ष्मी. यदि भवती माम् उद्दिश्य वक्तुमिच्छति चेत् लक्ष्मी इति एव वक्तव्यम्. अनन्तरं षष्ठं वाक्यं वदतु.
गौरी आगच्छतु, आपणं गच्छामः.
अस्मिन् वाक्ये कर्मपदं किम्?
दीर्घ आपणम्.
आपणम् इति कर्मपदं, तत्र प्रथमाविभक्त्यन्तरूपम् आपणः. किमर्थं तत्र इत्युक्ते अत्र गच्छामः इति पदम्, अत्र गम् धातुः अस्ति, गम् धातुः सकर्मकधातुः, अतः कर्मपदं स्वीकरोति, अतः आपणं गच्छामः इति दत्तमस्ति. भगिनि भवती एव वदतु, अत्र आगच्छतु इति पदमस्ति, लकारः कः?
लोट्लकारः.
सुन्दरम्. अत्र अस्मिन् वाक्ये किम् अभवत्? अत्र परिवर्तनं किम्?
गौरी दीर्घ ईकारः नास्ति.
दीर्घ ईकारः नास्ति, परन्तु कादम्बरी, तत्र सम्बोधनरूपं किं वदामः?
कादम्बरी.
सुन्दरं सुन्दरम्. अग्रिमं करोतु.
अम्बा किञ्चित् सारं परिवेशयतु.
अत्र किञ्चित् सारं परिवेशयतु, अत्र पश्यतु, अत्र किम् अभवत् भगिनि? अम्बा इति, अम्बा इति प्रथमाविभक्त्यन्तरूपं, परन्तु सम्बोधनरूपं किम्?
सम्बोधनरूपम् अम्बे.
अम्बे अम्बे भवति वा? अत्र पश्यतु किम् अभवत् अत्र. अत्र अन्यः विशेषः अस्ति भगिनि. अम्बा इति पदं वदतु, जानाति चेत् वदतु. उत्तमम्. इत्युक्ते अत्र विशेषः कः इत्युक्ते, साधारणतया आकारान्तस्त्रीलिङ्गपदमस्ति चेत् अम्बे इति वक्तव्यं, परन्तु तत्तु समीचीनं रूपं नास्ति. यथा भवती उक्तवती मान्या इति रूपं मान्ये भवति, परन्तु अम्बा इति पदस्य सम्बोधनारूपं किम्?
अम्बा.
अम्बा ह्रस्वरूपमेव आगच्छति. अत्र अपवादः इत्युक्ते, अत्र संस्कृतभाषायां बहूनि बहवः अपवादाः सन्ति. अपवादाः इत्युक्ते एक्सेप्षन्स् सन्ति. अम्बा इति पदं दीर्घ आकारान्तपदं, परन्तु सम्बोधनारूपं केवलम् अम्ब इत्युक्ते केवलं ह्रस्वरूपम् एव तत्र आगच्छति. अनन्तरम् अत्र पश्यतु भगिनि, पदमस्ति किञ्चित् इति पदमस्ति, भवती दृष्टवती वा अत्र कथं लिखितमस्ति पदं किञ्चित्? कथं लिखितमस्ति वदतु, अहं पूर्वम् उक्तवती एकवारं, भवती वदतु सर्वेषां कृते. अवगतवती वा अहं किं पृच्छामि इति? अत्र किञ्चित् इति दत्तमस्ति, सर्वे पश्यन्तु अत्र किञ्चित् कथं लिखितमस्ति. तत्र तत्र किम् अभवत् इत्युक्ते भवती वक्तुं शक्नोति वा भगिनि?
अहं न जानामि.
अत्र नो चेत् वदामि. अत्र किम् अभवत् इत्युक्ते अत्र अनुस्वारः, संस्कृतभाषायाम् अनुस्वारः इति वदामः. अनुस्वारः इत्युक्ते उपरि अत्र सारम् इति पदं पश्यन्तु, सारं तत्र मकारस्य स्थाने अनुस्वारः अस्ति. सारम् आपणं तत्र उपरि अनुस्वारः अस्ति. अनुस्वारः इत्युक्ते डाट् अस्ति. परन्तु अत्र किम् अभवत्, अनुस्वारस्य स्थाने चवर्गीय अन्तिमव्यञ्जनं लिखित्वा अनन्तरं चकारः लिखितः अस्ति, चकारः अस्ति अत्र. इत्युक्ते चवर्गीय अन्तिमव्यञ्जनं ञकारः, ञकारं लिखित्वा अनन्तरं चकारं लिखामः, तथा एव लेखनीयं. किञ्चित् किञ्चित् सारं परिवेशयतु. भवती जानाति वा परिवेशयतु इत्युक्ते किम्?
परिवेशयतु सर्व्.
उत्तमं. भवती भवती यदा कदापि मातरं पृष्टवती वा, अम्ब किञ्चित् अन्नं परिवेशयतु, किञ्चित् व्यञ्जनं परिवेशयतु, नो चेत् किञ्चित् सारं परिवेशयतु इति मातरम् उद्दिश्य वदति वा? उत्तमम्. अत्र परिवेषणं, परिवेषणम् इति ल्युडन्तरूपं, परिवेशयतु इति सर्व, सर्व फूड् इति अर्थः अत्र. अनन्तरम् अग्रिमं वाक्यं किम्?
राधे भवती किमर्थं किमपि न वदति?
अत्र अत्र किम् अभवत्, अत्र राधा इति पदस्य सम्बोधनं किम्?
राधे,
राधे इत्युक्ते अत्र राधा इति पदम् आकारान्तस्त्रीलिङ्गपदम्, अतः तस्य सम्बोधनरूपं राधे इति भवति. अग्रिमम्.
लते दूरे उपविश्य दूरदर्शनं पश्यतु.
अत्र लता इति पदस्य सम्बोधनरूपं लते. भवती जानाति तत् जानाति चेत् अत्र उपविश्य इति पदं नूतनं पदं जानाति वा, वदतु. अत्र रूपमस्ति लट्लकाररूपमस्ति उपविशति, परन्तु अत्र उपविशति इति न दत्तमस्ति, उपविश्य इति दत्तमस्ति. इत्युक्ते यदि यदा कदापि वाक्ये क्रियाद्वयं क्रियाद्वयं योजयित्वा वाक्यं रचयितुम् इच्छामश्चेत् तदा अत्र क्रियाद्वयमस्ति, दूरे उपविशतु अनन्तरं दूरदर्शनं पश्यतु. अस्मिन् वाक्ये क्रियाद्वयमस्ति, वाक्यद्वयमस्ति. वाक्यद्वयं मेलयित्वा एकमेव वाक्यं रचयितुम् इच्छामश्चेत् किं वदामः, दूरे उपविश्य दूरदर्शनं पश्यतु. पृथक्तया लिखामश्चेत् दूरे उपविशतु अनन्तरं दूरदर्शनं पश्यतु इति वाक्यद्वयमपि रचयितुं शक्नुमः. अत्र केवलम् एकमेव वाक्यमस्ति, परन्तु तस्मिन् वाक्ये क्रियाद्वयमस्ति. तत्र उपविश्य इति पदस्य रूपमस्ति ल्यप्, ल्यप् प्रत्ययान्तरूपम् इति वदामः. अत्र उप इति उपसर्गः, विश् इति धातुः, अनन्तरं ल्यबन्त ल्यप् प्रत्ययान्तरूपं दत्तमस्ति. अग्रे गत्वा वयम् अभ्यासपुस्तके एव कृत्वान्तरूपाणि अपि च ल्यबन्तरूपाणि तेषां विषये पठिष्यामः. अन्तिमं करोतु.
नलिनी किमर्थं रोदिति भवति।
किमर्थं रोदिति भवति? अत्र किम् अभवत् भगिनि?
दीर्घ ईकारः ह्रस्व दीर्घ ह्रस्व ईकारः न भवति भवति
इत्युक्ते दीर्घ ईकारस्य परिवर्तनं भूत्वा ह्रस्व ईकारः अभवत्। नळिनी यथा कादम्बरी, कादम्बरी किं भवति? कादम्बरि तथा भवति। अत्र पश्यति वा भगिनि किमर्थं रोदिति भवति? अत्र अस्मिन् वाक्ये अत्र त्रीणि पदानि सन्ति, भवति किमर्थं रोदिति, अथवा भवति रोदिति किमर्थम्, अथवा किमर्थं रोदिति भवति। तथा पदानि तेषां क्रमः किमपि भवतु नाम तत्र अर्थः समानः। अवगतवती वा? अत्र किमर्थं रोदिति भवति इति लिखितमस्ति। यदि वयम् इच्छामश्चेत् भवति किमर्थं रोदिति इति अपि वक्तुं शक्नुमः, नो चेत् भवति रोदिति किमर्थं तदपि समीचीनम्। इत्युक्ते पदानां तेषां क्रमस्य प्राधान्यता किमपि नास्ति, परन्तु अस्माकम् अवगमनार्थं पदानि एतादृशरूपेण एव लेखनीयानि। तत्र क्रमस्य प्राधान्यता एव नास्ति संस्कृतभाषायां, परन्तु अस्माकं कृते प्रारम्भिकस्तरीय छात्राणां कृते अत्र क्रमः तु आवश्यकः एव। उत्तमं, सुन्दररीत्या उक्तवती भगिनी, उत्तमं, धन्यवादः। अनन्तरम् अत्र अन्यं करपत्रमपि अस्ति अभ्यासविषये एव, सर्वे शृण्वन्तु, यदि कोऽपि अभ्यासं करोति चेत् वदति चेत् सर्वे शृण्वन्तु, तत्र अवधानं दत्वा शृण्वन्तु। अत्र आरोहन् भवान् कर्तुम् इच्छति वा? आरोहन् भवान् अत्र एकं करपत्रमस्ति, अहं करपत्रद्वयं प्रेषितवती, भवान् प्रथमं करपत्रं करोतु।
भवान् सेवकम् आह्वयतु।
अत्र अत्र पश्यतु, भवान् सेवकम् आह्वयतु इति एव दत्तमस्ति।
कृष्णः
वदतु, एकवारं वदामि। सर्वे अधुना किं कुर्मः इत्युक्ते, अभ्यासार्थम् अहम् अन्यं करपत्रं प्रेषितवती, तत्र करपत्रं सर्वे पश्यन्तु। तस्मिन् करपत्रे अपि सम्बोधनरूपाणां विषये एव अभ्यासः अस्ति, करोतु।
भवान् सेवकम् आह्वयतु। कृष्ण, भवान् सेवकम् आह्वयतु।
उत्तमम्। इत्युक्ते अत्र भवान् वक्तुं शक्नोति वा अस्मिन् वाक्ये कर्मपदं किम्?
सेवकम्।
सेवकं प्रथमाविभक्तिरूपं किम्?
भवान्।
भवान् प्रथमाविभक्तिरूपम्, उत्तमम्। अत्र सेवकम् इति पदस्य प्रथमाविभक्तिरूपम्। अहं वदामि, अत्र
सेवकः।
उत्तमम्, उत्तमं, तावदेव। इत्युक्ते अत्र सेवकम् इति पदं, यथा भवान् उक्तवान् सेवकम् इति कर्मपदमस्ति, यदि पदं द्वितीयाविभक्तौ अस्ति चेत् कर्मपदं भवति तस्मिन् वाक्ये। यथा भवान् उक्तवान् अत्र अस्मिन् वाक्ये प्रथमाविभक्त्यन्तरूपं भवान्, अतः भवान् इति कर्तृपदम्, भवान् इति कर्ता, सेवकम् इति कर्मपदम्। अत्र पश्यन्तु क्रियापदमस्ति आह्वयतु, इति अस्ति. आह्वयतु लकारः कः जानाति चेत् वदतु. अतः लोट् लकारः इति वदामः. इत्युक्ते अत्र आज्ञार्थे वा प्रार्थनार्थे वा लोट् लकाररूपं योजयित्वा वदामः. अत्र आह्वयतु, अत्र किम् इत्युक्ते आ इति उपसर्गः, ह्वे इति धातुः अस्ति. द्वितीयं करोतु. अत्र अत्र किम् अभवत्? भवान् वदतु. कृष्णः इति रूपं दत्तमस्ति, परिवर्तनं कथम् अभवत्?
कृष्ण
कृष्ण. आम्. द्वितीयं द्वितीयं करोतु.
भगिनी अत्र आगच्छतु तावत्, भगिनी अत्र आगच्छतु तावत्.
उत्तमम्. अत्र अत्र किम् अभवत् वदतु.
भगिनी भगिनी भवति
भवति. उत्तमम्. अत्र तावत् इति पदं दत्तमस्ति. तावत् इत्युक्ते जानाति वा? वदतु, जानाति चेत्.
न जानामि.
तावत् इत्युक्ते किं वदामः, अत्रान्तरे अथवा एतदभ्यन्तरे, अन्तरे इत्युक्ते मीन् टैम्, इन् द मीन् टैम्, इन् द मीन् वैल् इति वदामः संस्कृतभाषायाम्. अन्यानि पदानि अपि सन्ति, अन्यानि पदानि इत्युक्ते पर्यायवाचकपदानि सन्ति. पर्यायवाचकपदानि इत्युक्ते सिनोनीम्स्, आङ्ग्लभाषायां सिनोनीम्स् इति वदामः. अत्र तावत् इत्युक्ते अत्रान्तरे अथवा एतदभ्यन्तरे, अन्तरे, मीन् वैल् इति वदामः. अग्रिमं करोतु.
राधा पाठनम् अस्ति इति स्मरति खलु भवती? राधे पाठनं पठनम् अस्ति इति स्मरति खलु भवती?
राधे पठनम् अस्ति इति स्मरति खलु भवती इति राधे राधाम् उद्दिश्य तत्र सखी वदति. राधे पठनमस्ति इति स्मरति खलु भवती? खलु इति जानाति वा? खलु इत्युक्ते किम्? खलु इत्यस्मिन् अर्थे अन्यं पदमपि अस्ति, किल. श्रुतवान् वा आरोहन्?
आमां जानामि.
जानाति भवान्. अत्र पठनम् इति पदमस्ति. यथा पठनं, दमनं, स्मरणं, आगमनम् एतानि पदानि ल्युट् प्रत्ययान्तरूपाणि इति वदामः. अधुना वयं पठनं कुर्मः. अनन्तरम् अग्रिमम्
मित्रं श्वः मम गृहम् आगच्छतु भोः. मित्र श्वः मम गृहम् आगच्छतु भोः.
आगच्छतु भोः. उत्तमम्. अत्र किम् अभवत् वदतु.
मित्रं मित्र भवति,
मित्र भवति. उत्तमम्. अत्र भोः इति पदमस्ति. भोः इति पदम् अव्ययपदम्, अव्ययम् इति वदामः. परन्तु भोः इत्यस्य कोऽपि अर्थः नास्ति, केवलम् अतः योजयामः. तस्य विशेषार्थः कोऽपि नास्ति. अत्र श्वः श्वः मम गृहम् आगच्छतु भोः इति वदति. श्वः भवान् जानाति श्वः इत्युक्ते किम्? उत्तमम्. पञ्चमम्. पञ्चमं करोतु.
अम्मा अद्य मम आगमने विलम्बः भवेत्।
वदतु अत्र किम् अभवत्। किम् अभवत् वदतु।
अम्बे भवति
अत्र पश्यतु। वयं पूर्वं चर्चितवन्तः यदा कादम्बरी भगिनी उक्तवती तदा वयं चर्चितवन्तः साधारणतया अम्बा इति पदम् आकारान्तपदं, परन्तु तत्र सम्बोधनरूपं किं भवति अत्र अभ्यासपुस्तके पश्यतु दत्तवन्तः इति भाति पूर्वस्मिन् पुटे। अत्र पूर्वस्मिन् पुटे अम्बा इति पदं दत्तमस्ति, तस्य रूपं किं भवति? अम्बा इति पदस्य रूपं किं भवति जानाति वा? अत्र अम्बा इति पदं ह्रस्व अकारः इत्युक्ते अम्ब ह्रस्वरूपम् आगच्छति। अग्रिमं करोतु अम्ब। अत्र पूर्णतयवाक्यं अम्ब इति योजयित्वा पूर्णं वाक्यं वदतु।
अम्ब अद्य मम अद्य सायं मम आगमने विलम्बः भवेत्।
आगमने विलम्बः भवेत्। अत्र पश्यतु सर्वे पश्यन्तु भवेत् इति पदं नूतनं पदम् अस्माकं कृते। इदानीं पर्यन्तं वयं भवति इति एव जानीमः, अत्र भवेत् इति दत्तमस्ति। भवेत् इति पदम् अत्र संस्कृतभाषायां दशलकाराः सन्ति, दशलकाराः सन्ति। इदानीं पर्यन्तं वयं लट् लकारः इत्युक्ते वर्तमानकालः अथवा भूतकालः भविष्यत्कालः केवलं तदेव वयं ज्ञातवन्तः, परन्तु अत्र विधिलिङ्ग् विधिलिङ्ग् लकारः इति नाम्ना एकः लकारः अस्ति। तत्र भवति भूधातोः रूपं विधिलिङ्ग्लकारे भवेत् इति भवति। अग्रिमं करोतु मालिनी। अत्र चिन्तां मा करोतु तद्वाक्यं।
मालिनी चिन्ता मा करोतु भवति। मालिनी चिन्ता मा करोतु भवति।
अत्र किम् अभवत्? उत्तमम् इत्युक्ते केवलं दीर्घरूपं ह्रस्वः ह्रस्वः अभवत्। अनन्तरम् अत्र अस्मिन् वाक्ये कर्मपदं किम्?
चिन्ता
चिन्ताम् इति पदं कर्मपदं। तत्र प्रथमाविभक्त्यन्तरूपं किं भवति तस्य?
चिन्ता
चिन्ता मम चिन्ता अस्ति, परन्तु चिन्तां मा करोतु। अत्र क्रु करोति इति पदं क्रु धातुतः आगतः, क्रु धातुः सकर्मकधातुः, अतः यदा वाक्ये क्रु धातुः अस्ति चेत् सर्वदा कर्मपदं स्वीकरोति। अतः एव अत्र चिन्तां मा करोतु भवति। मालिनी हे मालिनी चिन्तां मा करोतु भवति। उत्तमम्। अग्रिमं करोतु
आर्या। किमहम् अन्तः आगच्छामि?
वदतु, अधुना परिवर्तनं कृत्वा वदतु। आरोहण वदति वा? कर्तुं शक्नोति वा? वाक्यं वदतु। किमहम् अन्तः आगच्छामि इति दत्तमस्ति अत्र। अत्र सम्बोधनारूपं योजयित्वा वदतु। कर्तुं शक्नोति वा आरोहण? नो चेत् भवान् जानाति वा आर्ये भवति? किम् आर्ये? किमहम् अन्तः आगच्छामि? अत्र पश्यन्तु सर्वे, आगच्छामि इति पदं दत्तमस्ति। यदि भवान् जानाति चेत् वदतु, नो चेत् अहं वदामि। अत्र आगच्छामि इति पदं दत्तमस्ति। श्रुतवान् वा एतत् पदम्?
न,
अत्र वयं पूर्वं पठितवन्तः लोट् लकारस्य विषये, इत्युक्ते आज्ञार्थे वा प्रार्थनार्थे वा एतेषाम् उपयोगं कुर्मः। यथा पूर्वम् आगच्छतु इति पदं प्रथमपुरुषे योजयामः, परन्तु उत्तमपुरुष, यदि भवान् जानाति चेत् संस्कृतभाषायां पुरुषत्रयमस्ति, इत्युक्ते प्रथमपुरुषे, मध्यमपुरुषे, उत्तमपुरुषे वाक्यानि रचयितुं शक्नुमः। अत्र प्रथमपुरुष कर्तृपदं योजयित्वा वदामश्चेत् भवान् आगच्छतु इति वदामः, परन्तु उत्तमपुरुष, उत्तमपुरुष इत्युक्ते अहम् उत्तमपुरुष, अहम् आगच्छामि वा इति वक्तुं शक्नुमः। अत्र आगच्छामि इति पदम् उत्तमपुरुष लोट् लकार एकवचनरूपम्। किम् अहम् अन्तः आगच्छामि? आर्ये किम् अहम् अन्तः आगच्छामि वा इति तस्य अर्थः। अत्र आगच्छामि इति लोट् लकारस्य उत्तमपुरुष एकवचनरूपम्। उत्तमं, धन्यवादः। अग्रिमं कः करोति अधुना? अत्र लक्ष्मी भगिनी भवती करोतु अग्रिमम्।
मान्ये भवति एतस्य अर्थ पुनः वदतु।
अत्र अस्मिन् वाक्ये कर्मपदं किं भगिनि? अत्र यद्भवती उक्तवती तत् सम्यक् एव। अत्र वाक्यं मान्ये भवती एतस्य अर्थं पुनः वदतु, तद्वाक्यं समीचीनमेव, केवलम् अवगमनार्थम् अहं पृच्छामि। अस्मिन् वाक्ये कर्मपदं किम्? अत्र
एतस्य,
अत्र एतस्य पदस्य विभक्तिः का? एषः इति पदात् एतस्य इति रूपम् आगतम्। एतस्य इति पदस्य विभक्तिः जानाति चेत् वदतु। वयं पठितवन्तः पूर्वमेव अत्र। उत्तमम्। एषः शब्दस्य षष्टिरूपमेव एतस्य। अत्र अस्मिन् वाक्ये कर्मपदं किं, किञ्चित् चिन्तयतु। अत्र कर्मपदम् अर्धम्, अर्धम् इति पदं कर्मपदं। किमर्थं वदामः? अत्र वदतु, वदतु अत्र क्रियापदमस्ति। वद् इति धातुः सकर्मकधातुः, अतः अर्धं वदतु, तस्य अर्धं वदतु इत्येव वदामः। प्रथमाविभक्तिरूपम् अर्थः, तस्य अर्थः कः, तस्य अर्थः कः अस्ति इति वदामः। परन्तु अत्र अर्धं वदतु, किं वदतु? अर्धं वदतु। मान्ये एतस्य अर्धं वदतु भवती इति उक्तमस्ति अत्र। अग्रिमं
लक्ष्मी, किमर्थम् अद्य आगमने विलम्बः?
अत्र किं भवति?
दीर्घ इकारः लक्ष्मी becomes लक्ष्मी.
अत्र विसर्गस्य लोपः भवति अपि च ह्रस्वरूपम् आगच्छति. अग्रिमं करोतु.
स्थिते भवति किमर्थं मौनेन स्थितवती?
किमर्थं मौनेन स्थितवती? अत्र यदि प्रश्नं पृच्छामश्चेत् कथं भवती वक्तुं शक्नोति चेत् वदतु. अत्र भवती किमर्थं मौनेन स्थितवती इति वाक्यं दत्तमस्ति. भवती कथं स्थितवती इति इति प्रश्नं पृच्छामि चेत् उत्तरं किं भवति?
मौनेन स्थितवती.
भवती कथं स्थितवती? मौनेन स्थितवती. किमर्थं मौनेन स्थितवती इति प्रश्नः अत्र. अत्र वयं पठितवन्तः पूर्वमेव तवत् प्रत्ययान्तरूपाणि, भूतकालरूपाणि पठितवन्तः. पठितवान् पठितवती, गतवान् गतवती, एतादृशानुरूपाणि वयं पठितवन्तः भूतकालरूपाणि तवत् प्रत्ययान्तरूपाणि. तदेव अत्र दत्तमस्ति. स्थितवती इति रूपम् अस्ति. स्थितवती इति पुंलिङ्गे किं भवति भगिनि?
स्थितवान्.
उत्तमम्. अत्र स्थितवान् इति भवति, परन्तु अत्र लट्लकाररूपं लट्लकाररूपं वक्तुं शक्नोति वा? अत्र सा स्थितवती, सा स्थितवती इत्यस्मिन् वाक्ये स्थितवती इति पदं सा इत्युक्ते अत्र विशेषणं भवति इति वयं पठितवन्तः. अत्र स्था दीर्घ आकारान्त स्था धातुः अस्ति. स्था धातुतः तिष्ठति इति रूपम् आगच्छति. तिष्ठति एव लट्लकाररूपम्. अत्र भवति तिष्ठति इति वर्तमानकाले वाक्यं रचयितुं शक्नुमः. अनन्तरम् एकादशमं वाक्यं वदतु.
रवि शालायां कोलाहलं मा करोतु.
अत्र परिवर्तनं कृत्वा रवे इति भवति. रवे. अत्र अस्मिन् वाक्ये कर्मपदं किम्?
शालायां.
चिन्तयतु भगिनि. अत्र शालायां वदतु. कोलाहलं कोलाहलं. प्रथमविभक्त्यन्तरूपं किम्?
कोलाहलः.
उत्तमम्. अत्र शालायाम् इति दत्तमस्ति. शालायां तस्य रूपं किम्?
द्वितीयविभक्ति.
अत्र वयं पठितवन्तः. कः वदति अत्र? अत्र सुचित्रा भगिनी भवती वक्तुं शक्नोति वा? अस्ति वा सुचित्रा भगिनी? नो चेत् अत्र वक्तुं शक्नोति वा भगिनि? अत्र शालायाम् इति पदमस्ति.
पञ्चमी विभक्ति.
न भगिनि, अत्र वयं पठितवन्तः. कुत्र?
शालायां कुत्र? अहं शालायां गच्छामि. नो, अहं देव या चत् वेर् टु फार् पञ्चमी इस् फ्रम् वेर्. ओके, वेर् टु वेर्, वेर् इट् इस् चतुर्थी.
न भगिनि, अत्र न, अहं तथा न. अत्र सुबर् महोदय भवान् वक्तुं शक्नोति वा अत्र?
आं भगिनि,
वदतु. शालायां
शालायां द्वितीयविभक्ति.
न न महोदय, अत्र कादम्बरी भगिनी भवती वदतु.
सप्तमी विभक्ति.
उत्तमं. सप्तमी विभक्ति. अत्र प्रश्नं पृच्छामः अत्र. किं पृच्छामः अत्र? वाक्यं प्रश्नवाचकवाक्यं रचयतु भगिनि. किं भवति प्रश्नवाचकवाक्यं? शालायां कोलाहलं मा करोतु इति वाक्यं दत्तमस्ति. कोलाहलं कुत्र? कोलाहलं कुत्र मा करोतु इति वक्तुं शक्नुमः प्रश्नवाचकवाक्यं. कुत्र कोलाहलं मा करोतु?
शालायां कोलाहलं, शालायां कोलाहलं मा करोतु.
तावदेव, तदेव वक्तव्यम्. उत्तमं. शालायाम् अत्र पदमस्ति, यथा भगिनी उक्तवती अत्र सप्तमी विभक्ति एकवचनरूपं. शालायां कोलाहलं मा कुर्वन्तु. अत्र प्रथमविभक्त्यन्त रूपं किं भगिनि?
शालां
प्रथमाविभक्ति
शाला.
शाला यथा पाठशाला अथवा वैद्यशाला अथवा अत्र किं वदामः, योगशाला, किमपि. अत्र शाला इति पदम् आकारान्तस्त्रीलिङ्गपदं, परन्तु अत्र शालायाम् इति दत्तमस्ति. शालायाम् इति सप्तम्यन्तरूपं, परन्तु शालाम् इति वदामश्चेत् द्वितीयाविभक्त्यन्तरूपम्. अत्र मा दीर्घ आकारान्त, मा इति पदमस्ति, मा इति पदम् अव्ययम् इति वदामः. अत्र वाक्यमस्ति शालायां कोलाहलं मा करोतु रवे. अत्र रविः इति पदस्य सम्बोधनरूपं किं भगिनि? लक्ष्मी भगिनी वदतु.
रवे,
रवे. अग्रिमं करोतु.
पितः प्रवासार्थ धनं ददातु.
अत्र अत्र किम् अभवत्? अत्र पश्यन्तु, अत्र वाक्यमस्ति. तत्र वाक्यं किम्? अत्र प्रवासार्थं धनं ददातु इति वाक्यमस्ति. पिता इति पदं रुकारान्तपदं, रु इत्युक्ते अजन्तपदम्. अत्र वयं जानीमः रु इति वदामः. अत्र पिता इति पदं रुकारान्तपदं, तस्य मूलरूपमस्ति पितृ. पितृ इति पदात् पिता इति प्रथमाविभक्त्यन्त रूपम् आगतं, परन्तु अत्र सम्बोधनरूपं किम् अभवत्?
पितः.
पितः, तावदेव. धनम् अत्र अत्र पश्यतु भगिनि, अस्मिन् वाक्ये कर्मपदं किम्?
धनम्.
धनं, परन्तु अत्र विभक्तिः, विभक्तिः का वदतु धनम् इति पदस्य?
द्वितीय.
द्वितीय. प्रथमाविभक्तिरूपं किं?
धनः.
अत्र अत्र किम् अभवत् इत्युक्ते, धनं प्रथमाविभक्त्यन्तरूपम् अपि धनं द्वितीयाविभक्त्यन्तरूपम् अपि धनमेव. किमर्थमित्युक्ते, नपुंसकलिङ्गपदं, पदं नपुंसकलिङ्गपदमस्ति चेत् तदा प्रथमाविभक्ति द्वितीयाविभक्त्यन्तरूपाणि समानानि, तथा फलं फले फलानि, तथा एव फलं फले फलानि. परन्तु अस्मिन् वाक्ये धनम् इति पदं द्वितीयाविभक्तौ अस्ति. तत्र पुत्रः पितरं पृच्छति, किं पृच्छति? पितः प्रवासार्थं धनं ददातु इति पृच्छति. किमर्थं, किमर्थं धनम् इच्छति सः?
प्रवासार्थं.
प्रवासार्थम्, उत्तमं. प्रवासं, प्रवासः इत्युक्ते किं भगिनि?
ट्रावेल्.
तावदेव. अत्र प्रा ट्रावेल्, ट्रावेल् ओन्लि. अत्र प्रा उपसर्गपूर्वकः वस् इति धातुः इति वदामः. अत्र क्रियापदमस्ति प्रवसति. वयं जानीमः निव वसति, वसति, प्रवसति, निवसति, एतानि पदानि वयं जानीमः. अत्र प्रवासार्थम्, अत्र किमर्थम् इत्युक्ते प्रवासार्थम्. अत्र लट्लकाररूपमस्ति प्रवसति, तथा वदामः. अनन्तरम् अग्रिमं करोतु.
धेनु शीघ्रम् आगच्छ, अन्धकारः भविष्यति.
शीघ्रम् आगच्छ, अत्र सम्बोधनरूपं किम्?
धेनु.
धेनु, उत्तमम्. अत्र धेनुः इति उकारान्तस्त्रीलिङ्गपदं, धेनुः उकारान्त स्त्रीलिङ्गपदं तस्य रूपाणि भवन्ति धेनुः धेनू धेनवः प्रथमविभक्त्यन्तरूपाणि एकवचने द्विवचने अपि च बहुवचने अत्र शीघ्रम् आगच्छ इति पदद्वयमस्ति अत्र शीघ्रम् इति पदं क्रियाविशेषणम् इति वदामः इत्युक्ते अत्र आङ्ग्लभाषायामपि वयं पठितवन्तः किम् अत्र एड्वर्ब् इति वदामः तथा एव अत्र संस्कृतभाषायाम् अपि अत्र क्रियाविशेषणानि सन्ति अत्र आगच्छ कथमागच्छ शीघ्रमागच्छ इत्युक्ते क्रियाम् उद्दिश्य क्रियायाः वर्णनं करोति अत्र क्रियाविशेषणं शीघ्रम् आगच्छ इति अस्ति अत्र अन्धकारः भविष्यति अस्मिन् वाक्ये कर्मपदम् अस्ति वा भगिनि न अस्मिन् वाक्ये कर्मपदं नास्ति केवलम् अन्धकारः भविष्यति इत्युक्ते अत्र भूधातुः अस्ति भूधातुः अकर्मकधातुः अतः तत्र कर्मपदं न सम्भवति केवलम् अत्र वाक्यमस्ति अन्धकारः भविष्यति अनन्तरम् अत्र धेनु इत्यस्य सम्बोधनरूपं किम् उक्तवती धेनो उत्तमं तावदेव अग्रिमं करोतु
मातः भवति मह्यम् अद्य मह्याम् अद्य किं मधुरं ददाति
अत्र वदतु परिवर्तनं कृत्वा
मातः
योजयित्वा वदतु मातः
भवति मह्याम् अद्य किं मधुरं ददाति
अद्य मातः माता इति पदस्य रूपं मातः इति भवति यदि भवन्तः श्रुतवन्तः चेत् तत्र मधुराष्टकम् इति एकम् अष्टकम् अस्ति अत्र तस्मिन् किमस्ति इत्युक्ते वचनं मधुरं चरितं मधुरं वसनं मधुरं सलिलं मधुरं कमलं मधुरं तथा अत्र मधुर इति पदं विशेषणं मधुर इति पदं विशेषणं तदर्थम् अत्र त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति कथं स्त्रीलिङ्गे वदामश्चेत् मधुरा पुंलिङ्गे वदामश्चेत् मधुरः नपुंसकलिङ्गे वदामश्चेत् मधुरम् इति तत्र तस्मिन् श्लोके कानिचन रूपाणि नपुंसकलिङ्गे भवन्ति कानिचन रूपाणि स्त्रीलिङ्गे भवन्ति कथं वचनं मधुरं चरितं मधुरं वसनं मधुरं सलिलं मधुरं तथा तत्र नपुंसकलिङ्गे योजितमस्ति यदि तत्र तस्मिन् श्लोके तत्र स्त्रीलिङ्गे अपि रूपाणि सन्ति कथं माला मधुरा यमुना मधुरा वीची मधुरा गोपी मधुरा लीला मधुरा तत्र मधुरा इत्युक्ते आकाश तत्र विशेषणं तदर्थं तत्र स्त्रीलिङ्गे पदं योजितमस्ति तथा एव नपुंसकलिङ्गे अपि पुंलिङ्गे अपि वक्तुं शक्नुमः अत्र भवती मह्यम् अद्य किं मधुरं ददाति अवगतवती वा भगिनि अत्र वाक्यं किं मधुरं ददाति भवती किं मधुरं ददाति इत्युक्ते अत्र पुत्रः वा पुत्री वा मातरम् उद्दिश्य पृच्छति अत्र मातः भवती मह्यम् अद्य किं मधुरं ददाति अत्र मधुरम् इत्युक्ते किं वदतु अस्मिन् वाक्ये
स्वीट् टु ईट् ओर्
समथिङ्ग् स्वीट् टु ईट् तावदेव अत्र ददाति इति पदं क्रियापदमस्ति दाधातुः अत्र दाधातुः अस्ति अत्र मह्यम् इति रूपं किं तत्र जानाति चेत् वदतु मह्यं
टु मी षष्टिविभक्ति
न भगिनि अत्र एकः विषयः अस्ति यदि दाधातुः अस्ति चेत् साधारणतया कस्मै ददाति, अत्र माता ददाति, परन्तु कस्मै ददाति, कस्मै ददाति, पुत्र्यै ददाति अथवा पुत्राय ददाति, अन्यस्मै ददाति, अत्र तथा एव अत्र मह्यम् इति तस्य रूपं किं कोऽपि वदति वा अस्माकं भगिनि?
इस् इट् मी?
अत्र मह्यम् इति पदस्य रूपं किं कोऽपि जानाति चेत् वदतु अत्र. सुब्बरमहोदय भवान् जानाति वा? अत्र नो चेत् अत्र कादम्बरी भवती
जानाति.
उमाशङ्कर महोदय वदतु.
मह्यं चतुर्थ्यां विभक्ति, चतुर्थ्या विभक्ति,
चतुर्थी विभक्तौ, चतुर्थी विभक्तौ अस्ति. उत्तमं. प्रथमविभक्तिरूपं किम्?
अहम्.
अहम्. अत्र अहं शब्दस्य चतुर्थी विभक्तिरूपं मह्यं, तदेव अत्र दत्तमस्ति. उत्तमं महोदय. तावदेव अत्र. भवती मह्यं, मह्यं ददातु, तत्र पुत्री वा पुत्रः वा वदति मातरम् उद्दिश्य, भवती मह्यं ददातु. किं ददातु? मधुरं ददातु. भवती किं मधुरं ददाति इति मातरं पृच्छति. अग्रिमं करोतु भगिनि.
श्रोते भवान् यत् गीतमिच्छति तत् गायामि.
अत्र वदतु.
श्रोते
अत्रापि नूतनं पदम् अस्माकं कृते. पूर्वतनवाक्ये अत्र माता इति पदम् अपि ऋकारान्तपदम्, ऋकारान्त. तदर्थम् अत्र मातः इति सम्बोधनरूपं भवति. अत्रापि श्रोता इति पदं ऋकारान्तपदं, तस्य रूपमस्ति, मूलरूपमस्ति श्रोतृ, श्रोतृ इति मूलरूपं, परन्तु प्रथमाविभक्त्यन्तरूपं श्रोता इति भवति. किञ्चित् ऊहां करोतु, ऋकारान्तपदानि वयं पठितवन्तः. पिता इति शब्दं, तस्य रूपं पितः, तथा एव माता इति पदस्य
मातः,
श्रोता इत्यस्य
श्रोतः,
श्रोतः तावदेव. श्रोतः योजयित्वा वदतु.
श्रोतः भवान् यत् गीतमिच्छति तत्
गायामि. तत् गायामि. उत्तमम्. अनन्तरम् अत्र शङ्करमहोदय भवान् वदतु.
भगिनि, एकः सन्देहमस्ति. अहं च चतुर्थीरूपं मह्यं, द्वे रूपमस्ति मह्यम् अथवा मे.
अस्ति महोदय.
तथापि रूपद्वयमस्ति, षष्टिविभक्ति अपि मम मे रूपद्वयमस्ति.
आं महोदय, मे मम तथा अस्ति. वदतु.
How to find the difference between this me and that me?
वयम् अवगन्तुं शक्नुमः अत्र वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः महोदय. अत्र
प्लीस्
अत्र अत्र भवतः कृते अहम् एकं, भवान् शृणोतु महोदय, अत्र यदि भवान् जानाति चेत् एकवारं सरस्वती नमस्तुभ्यं श्लोकं वदतु.
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवति मे, सिद्धिर्भवति मे सदा.
तावदेव श्लोकः. अत्र अस्मिन् श्लोके बहूनि पदानि सम्बोधनरूपाणि सन्ति. सम्बोधनरूपाणि पश्यतु अस्मिन् श्लोके.
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. सरस्वती, सरस्वती सम्बोधनं.
उत्तमम्. अत्र सरस्वती इति पदं ह्रस्वैकारान्तपदम्, अतः सम्बोधनरूपं. सरस्वती इति पदम् एकं पदं सम्बोधनरूपम् अस्ति. अन्यं पदं वदतु.
सरस्वती नमस्ते कामरूपिणी
कामरूपिणी अपि सम्बोधनरूपम् अपि च वरदे वरदे अपि
वरदे कामरूप सम्बोधनापदं
सम्बोधनापदम् अत्र यदि वयं साधारणतया अन्वयवाक्यम् अन्वयवाक्यम् इति वदामः यदि श्लोकं पठामश्चेत् श्लोके पदानि इतस्ततः भवन्ति परन्तु अन्वयवाक्यं रचयामश्चेत् किं वदामः हे सरस्वती हे वरदे हे कामरूपिणी अनन्तरं किं वदामः विद्यारम्भं करिष्यामि इत्युक्ते किं महोदय
अहं करिष्यामि अहं मे तत्र मे शब्दं मे मह्यं मह्यं मे
अत्र पश्यामः अत्र अहं वयं जानीमः करिष्यति करिष्यामि इति वयं जानीमः अहं विद्यारम्भं करिष्यामि विद्यायाः आरम्भः इति प्रथमविभक्त्यन्तरूपं तत्र समासः अस्ति विद्यायाः आरम्भं करोमि करिष्यामि करिष्यामि अनन्तरं सदा मे सिद्धिः भवतु सिद्धि अत्र सदा सदा वयं जानीमः सदा इत्युक्ते सर्वदा
सर्वदा
सर्वदा सिद्धिः सिद्धिः इत्युक्ते किं
प्राप्नोति
सिद्धिः इत्युक्ते सिद्धिः इत्युक्ते सफलता
सफलता
अथवा साफल्यं सफलता साफल्यं सक्सस् इति वदामः अत्र सिद्धिः मे मे सिद्धिः भवतु मे सिद्धिः भवतु इत्युक्ते अत्र मे इति पदं योजितमस्ति तस्मिन् श्लोके मे इत्युक्ते तत्र मह्यम् इति वक्तुं शक्नुमः
नो नो भवति भगिनि
अत्र मे अस्मिन् श्लोके मे इति पदं दत्तमस्ति मे इति पदम् अहं अस्मत्शब्दः अस्मत्शब्दस्य यथा भवान् उक्तवान् चतुर्थीरूपम् अपि च षष्टिरूपं समानमेव परन्तु अत्र मम सिद्धिः भवतु इति अपि वक्तुं शक्नुमः इत्युक्ते अत्र वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः अत्र यथा भवान् उक्तवान् तत्र रूपाणि अस्मत्शब्दस्य चतुर्थीरूपम् अपि च षष्टिरूपं तेषु अत्र विकल्पद्वयम् अस्ति रूपद्वयम् अस्ति मह्यं मे अथवा मम मे
धन्यवादः भगिनि
अस्तु महोदय अत्र अस्मिन् श्लोके यथा चिङ्करन् महोदय अधुना उक्तवान् सरस्वती नमस्तुभ्यम् अस्मिन् श्लोके बहूनि सम्बोधनरूपाणि सन्ति श्लोकं वयं जानीमः तथा एव बहूनि तत्र सम्बोधनरूपाणि सन्ति बहुषु श्लोकेषु तत्र
तदेव अनन्तरम् इतरश्लोकम् अक्षयं देहि च बहुनं मदीयमेव स्वरूपम् तदेव समानमेव
तदहं न जानामि महोदय अत्र भवन्तः सर्वे यदि अयिगिरिनन्दिनि नन्दितमोदिनि इति श्रुतवन्तः चेत् तत्र अयि अयि इति पदं दत्तमस्ति अयि इत्युक्ते अत्र
सम्बोधनं सम्बोधनं
सम्बोधनरूपम् अयि गौरी सम्बोधनरूपम् अत्र वयं जानीमः यथा भवान् उक्तवान् भो शम्भो तथा
नमस्ते नमस्ते धन्यवादः
अस्तु अत्र लक्ष्मी भगिनी भवती कृतवती अस्ति कुर्वती अस्ति अत्र अन्तिमं करोतु भवती
शम्भो रक्ष मां भवसागरात्
शम्भो रक्ष मां भवसागरात् अत्र भवसागरात् इति पदमस्ति, रूपं किं भगिनि विभक्तिः का?
पञ्चमी.
पञ्चमी, उत्तमम्. अत्र रक्ष इति पदमस्ति, रक्ष इति पदम् अत्र रक्षयति, तत्र लट्लकाररूपं रक्षयति, परन्तु अत्र रक्ष इति दत्तमस्ति. जानाति वा, वक्तुं शक्नोति वा रक्ष इति पदम्? अत्र एकं स्मर्तव्यम्, एकः विषयः स्मर्तव्यः इत्युक्ते अत्र सुबन्तपदानां कृते विभक्तयः सन्ति, तिङन्तपदानां कृते पुरुष तथा भवति. इत्युक्ते सुबन्तपदम् इत्युक्ते अत्र नामपदं, नामपदानां कृते विभक्तयः सन्ति, परन्तु अत्र रक्ष इति पदं क्रियापदम्, क्रियापदानां कृते प्रथमपुरुष एकवचन द्विवचन बहुवचनरूपाणि भवन्ति, तथा एव मध्यमपुरुष एकवचन द्विवचन बहुवचनरूपाणि, उत्तमपुरुष एकवचन द्विवचन बहुवचनरूपाणि भवन्ति. अत्र रक्ष इति पदं क्रियापदम्. पूर्वं वयं पठितवन्तः लोट्लकाररूपं, परन्तु अभ्यासपुस्तके इदानीं पर्यन्तं वयं प्रथमपुरुषरूपाणि एव ज्ञातवन्तः. आगच्छतु, पठतु, गच्छतु इति एतानि पदानि प्रथमपुरुषरूपाणि, परन्तु अत्र रक्ष इति दत्तमस्ति. रक्ष इति मध्यमपुरुष एकवचनरूपं. त्वं रक्ष, मां रक्ष, त्वं मां रक्ष. साधारणतया वयं श्लोकान् पठामश्चेत् तत्र रक्ष रक्ष जनार्दन, रक्ष रक्ष महेश्वर इति वदामः. अत्र रक्ष रक्ष इति मध्यमपुरुष एकवचनरूपं. त्वं रक्ष, त्वम् इति न वदामश्चेत् अपि तत्र रक्ष इत्युक्ते मध्यमपुरुष एकवचनरूपं, परन्तु मध्यमपुरुषकर्तृपदं किं वदतु? मध्यमपुरुषकर्तृपदं भगिनी, मध्यमपुरुषकर्तृपदं त्वं मध्यमपुरुषकर्तृपदम्. उत्तमपुरुषकर्तृपदम् अहम्. अत्र त्वं रक्ष, परन्तु अत्र कर्मपदमस्ति मां. त्वं मां रक्ष. त्वम् इति पदम् अत्र युष्मत्शब्दः इति वदामः. मां, माम् इति रूपं किं कादम्बरी भगिनी वदतु? माम् इत्युक्ते अत्र माम् इति शब्दस्य रूपं
द्वितीया विभक्ति.
सुन्दरम्. इत्युक्ते प्रथमविभक्तिरूपं वदतु
भगिनी. रक्ष, रक्ष इत्युक्ते किं?
रक्ष इत्युक्ते मां रक्षयतु, रक्षणं करोतु, प्रोटेक्ट् मी.
अस्तु,
रक्षयति, रक्षयति लट्लकाररूपं, लोट्लकारः रक्षयतु, परन्तु अत्र रक्ष इति दत्तमस्ति, मध्यमपुरुष एकवचनरूपं. रक्ष, रक्षणं करोतु. देवम् उद्दिश्य वयं श्लोकान् पठामश्चेत् तत्र श्लोकेषु एतदेव वदामः, देव मां रक्ष, मां रक्ष, त्वं मां रक्ष इति वदामः. तावदेव अत्र. इदानीं इदानीं पर्यन्तं वयं सम्बोधनरूपाणां विषये किञ्चित् वयं
भगिनि
वदतु महोदय.
एकः प्रश्नः अस्ति, भवसागरः इति पदस्य अर्थः किं भवति?
भवसागरः, भवसागरः इत्युक्ते अत्र संसारः, एषः संसारः, सागरः इव अत्र, तत्र किं वदामि, अत्र कोऽपि वक्तुमिच्छति वा? अत्र शङ्करन् महोदय भवान् वदतु, भवसागरः इत्युक्ते किं? शङ्करन्
महोदय इत्युक्ते संसारः, सागरम् इत्युक्ते समुद्रः,
समुद्रः,
समुद्रः. भवसागरम् इत्युक्ते अनेककोटिजन्म अहं जानामि. अहं वाट् टु से, इट्स् अ कण्टिन्युस् प्रोसेस्, देर् इस् नो एण्ड् टु इट्. कण्टिन्युस् इट् इस् कमिङ्ग् अण्ड् गोयिङ्ग्. पुनरपि मननं, पुनरपि जननं, पुनरपि जननं, जठरे शयनं, तत्तस्मात्
उत्तमं, तदेव तदेव वक्तव्यं. दिस् इस् अ लैफ् सैकल्. अत्र तनि महोदय अवगतवान् वा? तत्र तादृश अर्थः एव भवति, परन्तु वर्णयितुं न शक्नोमि. ऐ केनाट् एक्स्प्लेन् वाट् एक्साक्ट्लि इट् इस्. भवसागरः,
ऐ अण्डर्स्टुड्. अहम् अहम् अण्डर्स्टुड् वाट् टु से इन् सेन्स् ज्ञा.
भवान् भवानेव किञ्चित् प्रयत्नं करोतु. श्रुतवान् वा पूर्वमपि एतत् पदं?
पुनः वदतु.
एतत् पदं भवान् पूर्वमेव श्रुतवान् वा, अथवा प्रथमवारं श्रुतवान् वा एतत् पदम्?
प्रथम
प्रथमवारं श्रुतवान्. अत्र भवसागरः, भवसागरः इत्युक्ते अत्र यथा शङ्करन् महोदयः उक्तवान्, अत्र अस्माकं जीवनं समुद्रः इव अत्र, तदर्थं देवं. वदतु महोदय.
I understood. I was asking what to say for I understood in Sanskrit.
प्रयत्नं करोतु किञ्चित्.
अहं ज्ञा समथिङ्ग् वित् ज्ञा धातु. अहं अहं ज्ञातवान्,
अहं ज्ञातवान्, अधुना अहं ज्ञातवान्, अथवा अहं यदि भूतकालार्थे वक्तुम् इच्छति चेत् अहं ज्ञातवान्, नो चेत् अहं जानामि.
अहं जानामि.
वर्तमानकाले वदामश्चेत् अधुना अहं ज्ञातवान्. अहं वर्तमानकाले अहं जानामि, भूतकाले वक्तुम् इच्छति चेत् अहं ज्ञातवान्. उत्तमं. भवसागरः इति पदं किञ्चित् क्लिष्टकरं महोदय, अत्र तावत् सुलभः नास्ति. अत्र भवसागरः इत्युक्ते यथा राजीवसिंह महोदय उक्तवान्, या अत्र लैफ् सैकल् देवमुद्दिश्य एव वयं वदामः, भवसागरात् मां रक्ष. हे देव, भवसागरात् मां रक्ष इति वदामः. उत्तमम्. अधुना सम्बोधनरूपाणि रूपाणां विषये किञ्चित् वयं ज्ञातवन्तः. अधुना सर्वे अत्र एका कथा अस्ति. गते सप्ताहे वयं भविष्यत्कालरूपाणां विषये कानिचन विषयान् केचन विषयाः तत्र सन्ति वयं पठितवन्तः. अधुना वयं एकां कथां पठामः. अत्र भविष्यत्कालरूपाणि बहूनि सन्ति अस्यां कथायाम्. अत्र कथायाः नाम अस्ति नष्टः पिष्टघटः. अत्र इदानीं पर्यन्तं कः न पठितवान्? अत्र उमाशङ्करमहोदय भवान् करोतु. कथां पठतु.
नष्टः पिष्टघटः. कस्मिंश्चित् नगरे कञ्चन दरिद्रः ब्राह्मणः वसति स्म. सः भिष्टान्नेन जीवनं करोति स्म.
अत्र महोदय, अत्र अत्र पश्यतु, अत्र पदमस्ति भिक्षाटनेन.
भिक्षाटनेन, भिक्षाटनेन जीवनं करोति स्म. कदाचित् सः पिष्ठेन पूर्णं एकं घटं प्राप्तवान् तं घटं नागदन्ते अवलम्य तस्य अध्यग तस्य अधः उपविश्य सः एकदृष्ट्या घटमेव पश्यति स्म.
इत्युक्ते अत्र सर्वे द्वितीयं करपत्रं पश्यन्तु. अत्र वयं कथां पठामः. अत्र नष्टः पिष्टघटः इति नाम्ना एका कथा अस्ति. सर्वेषां पार्श्वे तत् करपत्रम् अस्ति इति अहं चिन्तयामि. महोदय, भवान् अवगतवान् वा अत्र अस्मिन् परिच्छेदे किं दत्तमस्ति?
न भवन्
अत्र एकमेकं वाक्यं स्वीकृत्य वयम् अवगन्तुं प्रयत्नं कुर्मः. अत्र कथायाः नाम अस्ति नष्टः पिष्टघटः. अत्र पिष्टः, अत्र पिष्टम् इत्युक्ते किं जानाति वा? कोऽपि जानाति चेत् वदतु. अत्र जानाति अत्र अत्र भवान् शृणोतु महोदय. उमाशङ्कर् महोदय, सुचित्रा भगिनी, अधुना भवती वदतु अत्र पिष्टघटः इत्युक्ते पिष्टेन पूर्णं घटः इत्युक्ते तत्र एकः घटः अस्ति. तस्मिन् किम् अस्ति भगिनि वदतु?
पिष्टः अस्ति.
पिष्टम् अस्ति इत्युक्ते अत्र पिष्टघटः इत्यस्मिन् पदे समासः अस्ति. पिष्टेन पूर्णं घटं तत्र पिष्टेन पूर्णः घटः अस्ति तत्र. अत्र प्रथमं वाक्यं पठतु भगिनि.
कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म.
कस्मिंश्चित् नगरे, अत्र पूर्वं श्रुतवती वा कस्मिंश्चित् इति पदम्? वदतु.
नगरे नगरे वि डोण्ट् नो.
तावदेव. इत्युक्ते अत्र किं वदामः, अनिश्चितार्थे चित् अथवा चन प्रयोगं कुर्मः. अनिश्चितार्थे इत्युक्ते तत्र एकं नगरमस्ति, परन्तु वयं न जानीमः तत् नगरं किं, वयं न जानीमः. तदर्थम् एकं नगरमस्ति, तस्य नाम किम् इति वयं न जानीमः. तदर्थम् अत्र कस्मिंश्चित् नगरे, अत्र नगरे विभक्तिः सप्तमी विभक्तिः. तदर्थमेव अत्र कस्मिंश्चित्, अत्र कः इति पदं जानीमः, कः शब्दस्य सप्तमी रूपं कस्मिन्, कः शब्दस्य सप्तमी रूपं कस्मिन्, कस्मिंश्चित् नगरे कः आसीत् वदतु भगिनि.
कश्चन दरिद्रः ब्राह्मणः वसति स्म.
अत्र कश्चन कश्चन ब्राह्मणः, अत्रापि चन, कः योगः चन, कः इति वयं जानीमः, सः कः, एषः कः वयं जानीमः, कः योगः चन, तत्र कश्चन इति भवति. अत्र विसर्गसन्धिः अस्ति. कस्मिंश्चित् नगरे दरिद्रः ब्राह्मणः वसति स्म. दरिद्रः इत्युक्ते कः भगिनि?
न धनम्.
पूर्णतया वाक्यं वदतु तदेव.
कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म.
अत्र अत्र दरिद्रः इत्युक्ते यस्य पार्श्वे धनं नास्ति, यस्य समीपे धनं नास्ति सः एव दरिद्रः. एकं नगरमस्ति, तस्मिन् नगरे एकः ब्राह्मणः अस्ति, सः दरिद्रः धनहीनः, तस्य पार्श्वे धनं नास्ति. अत्र वसति स्म इति दत्तमस्ति. स्म इत्युक्ते अत्र यदि वयं
स्म इति योजयामश्चेत् तत्र भूतकालार्थम् अर्थम् आगच्छति तत्र वसति स्म अथवा वयं लङ्लकाररूपं योजयित्वा इत्युक्ते भूतकालरूपं योजयित्वा वदामश्चेत् अवसत् एकः दरिद्रः ब्राह्मणः अवसत् इत्यपि वक्तुं शक्नुमः अथवा एकः दरिद्रः ब्राह्मणः उषितवान् क्तवतु भूतकालार्थे क्तवतु रूपं योजयित्वा वक्तुमिच्छामश्चेत् एकः दरिद्रः ब्राह्मणः उषितवान् इति अपि वक्तुं शक्नुमः अत्र स्म इति योजनेन भूतकालार्थं सम्भवति
उषितवान् इति पदस्य धातुः किम् अस्ति
वस् धातुः महोदय वस् धातोः लट्लकाररूपं वसति वस् धातोः क्तवत् प्रत्ययान्तरूपं उषितवान् क्तवत् भूतकालार्थे वयं योजयामः नो चेत् लङ्लकारं योजयित्वा वदामश्चेत् अवसत् दरिद्रः ब्राह्मणः अवसत् इति अपि वक्तुं शक्नुमः प्रथमं वाक्यं किम् इत्युक्ते एकः दरिद्रः ब्राह्मणः एकस्मिन् नगरे आसीत् अनन्तरं भगिनि पठतु द्वितीयं वाक्यं
सः भिक्षाटनेन जीवनं करोति स्म
इत्युक्ते किं
सः भिक्षं भिक्षं भिक्षस्य जीवनं भिक्षं करिष्यति जीवनं लिविङ्ग् वसति
इत्युक्ते यथा भवती उक्तवती इत्युक्ते सः जीवनं करोति स्म कथं जीवनं करोति तस्य पार्श्वे धनं नास्ति तदर्थं सः किं करोति स्म वदतु
भिक्षाटनं
सः भिक्षाटनं करोति अत्र भिक्षाटनम् इति पदं समस्तपदम् इति वदामः इत्युक्ते तत्र समासः अस्ति भिक्षायाः अटति चलति गच्छति इत्यस्मिन् अर्थे संस्कृतभाषायाम् अटति इति क्रियापदमस्ति अटति चलति गच्छति एतानि पदानि तेषाम् अर्थः समानः सः किं करोति भिक्षाटनं करोति सर्वदा भिक्षाटनेन या भिक्षा तत्र अस्ति तेन सः जीवनं करोति स्म सः ब्राह्मणः सः सर्वदा भिक्षाटनं करोति जीवनं तथा जीवनयापनं करोति अग्रिमं
कदाचित् सः पिष्टेन पूरणम् एकं घटं प्राप्तवान्
किं प्राप्तवान् सः
पिष्टेन पूर्णम् एकं घटं
पिष्टेन पूर्णम् एकं घटं प्राप्तवान् कदा प्राप्तवान्
कदाचित्
वयं न जानीमः एकदा एकदा सः भिक्षाटनं कुर्वन् आसीत् तदा पिष्टेन पूर्णं घटं प्राप्तवान् तदा सः किं करोति अकरोत्
तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविशय सः एकदृष्ट्या घटमेव पश्यति स्म
उत्तमं तं घटम् अत्र विभक्तिः का भगिनि वदतु
तं द्वितीया घटं त्वं घटं
तं घटम् इति घटम् इति पदस्य विशेषणं तं घटं कं घटं तत् पिष्टेन पूर्णं घटं तं घटं सः किं कृतवान् तं घटं नागदन्ते अवलम्ब्य नागदन्तः इत्युक्ते कः जानाति तस्य अर्थः कः वदतु भगिनि
एलिफेण्ट्स् टस्क् गजाः दन्तः नागदन्तः
नागदन्तः इत्युक्ते भवती उक्तवती अत्र कीलः इति अन्यं पदमस्ति. नागदन्तः इत्युक्ते हुक् हुक् अथवा किं वदामः, पेग् इन् द वाल् टु हेङ्ग् सम्थिङ्ग्. नागदन्तः इत्युक्ते कीलः इति अन्यं पदमस्ति. कीलः इत्युक्ते अत्र हुक् हुक् इति वदामः, नो चेत् पेग् इन् द वाल् टु हेङ्ग् द थिङ्ग्स् अपान्. अत्र सः दरिद्रः तं घटं स्वीकृत्य नागदन्ते अवलम्ब्य, नागदन्ते स्थापयित्वा तस्य अधः उपविश्य, अत्र पश्यन्तु अवलम्ब्य उपविश्य, अत्र पदानि ल्यबन्तरूपाणि, ल्यप् प्रत्ययान्तरूपाणि. अवलम्बते इति क्रियापदमस्ति, तस्मात् अवलम्ब्य. उपविशति इति पदस्य ल्यबन्तरूपम् उपविश्य. अत्र अस्मिन् वाक्ये सः किं किं कृतवान्? प्रथमतया सः तं घटं नागदन्ते अवलम्ब्य तदनन्तरं तस्य अधः उपविष्टवान्. सः ब्राह्मणः उपविश्य किं करोति?
घटमेव एकदृष्ट्य घटमेव पश्यति.
एकदृष्ट्या घटमेव पश्यति स्म सः. तत्र नागदन्ते अवलम्ब्य तस्य अधः उपविश्य एकदृष्टिः अत्र दृष्टिः इति पदमस्ति. दृष्टिः इति पदम् इकारान्त ह्रस्व इकारान्त स्त्रीलिङ्गपदं. कथं दृष्टवान्? एकदृष्ट्या. अत्र एकदृष्ट्या इति पदं विभक्तिः का? कः वदति? कः जानाति? कादम्बरी भगिनी वदतु. तृतीया विभक्ति. कथं पश्यति स्म? एकदृष्ट्या पश्यति स्म, केवलं तदेव पश्यति स्म. घटं दृष्ट्वा तत्र सः एकदृष्ट्या घटमेव पश्यति स्म, इत्युक्ते घटमेव दृष्टवान् इति अपि वक्तुं शक्नुमः. इदानीं पर्यन्तम् अवगतवान् वा अत्र उमाशङ्करमहोदय? अवगतं वा? अवगतं अवगतम्. उत्तमम्. अधुना राजीव् सिङ्ग् महोदय भवान् पठतु, अत्र अग्रिमे परिच्छेदे किं दत्तमस्ति. राजीव् सिङ्ग् महोदय महोदय वदतु.
एकः प्रश्नः अस्ति, अवलम्ब्य अर्थं टु हेङ्ग् इति भवति.
अवलम्ब्य इत्युक्ते टु हेङ्ग्.
पिष्टमिति शब्दम् इति पदं नपुंसकलिङ्गं भवति.
पिष्टम् इति नपुंसकलिङ्गपदम् अहं तथा अहं दृष्टवती.
धन्यवादः.
उत्तमम्. अत्र राजीव्सिङ्ग् महोदय द्वितीयपरिच्छेदे किमस्ति, पठतु.
आं भगिनि. एकदा रात्रौ सः चिन्तितवान् यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य सत्रूप्यकाणां मूल्यं भवेत्. तदा अहम् एतत् विक्रिय तेन धनेन अजद्वयं क्रेष्यामि. कालान्तरे तेन अजसमूहः एव भविष्यति. अनन्तरम् अजसमूहं विक्रिय धेनुः क्रेष्यामि. अनन्तरं सः विक्रिय महीषिः तः विक्रिय अश्वान् च क्रेषयामि तान् अपि विक्रिय यथेष्टं धनं सम्पादयिष्यामि बृहत् गृहं निर्मापयिष्यामि तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां महां दास्यति अनन्तरं मम पुत्रः जनिष्यते देवशर्मा इति तस्य नामकरणं करिष्यामि यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्यत भविष्यति तदा तं बालं गृहीतुं तस्य मातरम् आज्ञापयिष्यामि यदा सा मम वचनं न श्रोणयति तदा
श्रोष्यति महोदय अत्र श्रोष्यति
यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन प्रादप्राहेण तां दण्डयिष्यामि इति
उत्तमम् अत्र भवान् अत्र अस्मिन् परिच्छेदे बहूनि भविष्यत्कालरूपाणि पदानि सन्ति किञ्च वदतु महोदय अत्र भविष्यत्कालरूपाणि कानि एकवारं वदतु
जस्न श्रोष्यति दण्डयिष्यामि
आज्ञापयिष्यामि उत्तमम् उत्तमं तावदेव इत्युक्ते अत्र अस्मिन् परिच्छेदे बहूनि पदानि भविष्यत्कालरूपाणि सन्ति शीघ्रं वयं किञ्चित् चिन्तनं कृत्वा समापयामः अत्र अत्र धन्यवादः महोदय सुब्बर महोदय भवान् कर्तुम् इच्छति वा अत्र एकमेकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कृत्वा समापयामः कथाम् अत्र सुब्बर महोदय करोति वा अत्र एकदा रात्रौ सः चिन्तितवान् कः चिन्तितवान् सुबारु महोदय करोतु महोदय अस्ति वा अत्र नो चेत् अत्र तनय महोदय भवान् करोतु अत्र एकदा रात्रौ सः चिन्तितवान् इति वाक्यमस्ति कः चिन्तितवान्
ब्राह्मणः
ब्राह्मणः चिन्तितवान् अत्र रात्रौ इति पदमस्ति विभक्तिः का
रात्रौ इति पदम् इति पदस्य विभक्तोः सप्तमी इति भवति
सुन्दरं सप्तमी भवति उत्तमम् एकदा सः ब्राह्मणः दरिद्रः ब्राह्मणः रात्रौ चिन्तितवान् किं चिन्तितवान् यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत् अत्र दुर्भिक्षः इति पदमस्ति इत्युक्ते किं वदतु इत्युक्ते अत्र दुर्भिक्षः इत्युक्ते आहारस्य अभावः अत्र आहारः न अभावः यदि आहारः देशे नास्ति चेत् तदा आहारस्य अभावः इति वदामः यदि सः चिन्तितवान् तत्र नागदन्ते घटम् अवलम्ब्य तस्य अधः उपविश्य सः चिन्तितवान् किं यदि देशे दुर्भिक्षः भवति यदि देशे किमपि आहारं नास्ति खादितुं तत्र तदा अहं किं करोमि एतं घटम् एतस्य घटस्य मूल्यं शतरूप्यकाणि मूल्यं भवेत् अत्र रूप्यकं रूप्यकम् इति पदस्य बहुवचनरूपं किं महोदय
रूप्यकाणि
रूप्यकाणि तत्र अणत्वं भवति इत्युक्ते णकारः मूर्धन्यणकारः आगच्छति रूप्यकाणि इति भवति अत्र शतं रूप्यकाणां मूल्यं भवेत् रूप्यकाणाम् इति षष्टिबहुवचनम् एतस्य घटस्य मूल्यं किं भवति
शत्यरूपकाणां भवति
शतं रूप्यकाणि भवति उत्तमं तदा सः किं कर्तुमिच्छति तदा अहम् एतत् घटं विक्रीय तेन धनेन अजद्वयं क्रेष्यामि अत्र एतस्य घटस्य विक्रयणं करोमि प्रथमतया किमर्थं चेत् देशे दुर्भिक्षः अस्ति तत्र आहारः कुत्रापि नास्ति तदर्थम् एतं घटम् अहं तस्य विक्रयणं करोमि अनन्तरं तत्र मम पार्श्वे धनम् आगच्छति तदा किं करोमि तेन धनेन अजद्वयं क्रेष्यामि अजद्वयम् इत्युक्ते किं महोदय अजद्वयम् इत्युक्ते
अहं न जानामि
अजः
गोट्
कः वदति उत्तमं उत्तमं गोट् अजद्वयं
पश्यन्तु
टु गोट्स् उत्तमम् अत्र किं वदामः संस्कृतभाषायां समूहवाचकशब्दाः इति वदामः द्वयं त्रयं चतुष्टयं पञ्चकं षट्कं सप्तकम् अष्टकं नवकं दशकं शतकम् एतानि समूहवाचकशब्दाः इति वदामः समूहवाच्यः पदत्रयं काल पदद्वयं कालत्रयं दुष्टचतुष्टयं नो चेत् तत्र तथा वदामः समूहवाचकशब्दाः तथा एव अत्र धनम् आगच्छति मम पार्श्वे तदा अहम् अजद्वयं क्रेष्यामि क्रेष्यामि इति पदं भविष्यत्काले अस्ति परन्तु तस्य लट्लकाररूपं किं भवति महोदय वदतु
करोमि
क्रेष्यामि
क्रीणाति
उत्तमम् उत्तमं क्रीणाति क्रीणाति प्रथमपुरुषरूपं परन्तु क्रीणामि क्रीणामि इति पदस्य भविष्यत्कालरूपम् एव क्रेष्यामि तत्र एतं घटं विक्रीणामि चेत् तदा धनम् आगच्छति मम पार्श्वे तेन धनेन अजद्वयं क्रेष्यामि कालान्तरेण किं भवति कालान्तरेण इत्युक्ते इन् द मीन् वैल् किं भवति तेन अजद्वयेन अजसमूहः भविष्यति इत्युक्ते किं महोदय अजसमूहः भविष्यति
herd of goat from two goats
उत्तमं वदतु
from two goats he will get a bigger group of goats
उत्तमम् अत्र भविष्यति इति पदस्य लट्लकाररूपं किं
भवति
तावदेव अनन्तरम् अहम् अजसमूहं विक्रीय धेनुः क्रेष्यामि एतत् अजद्वयम् अजसमूहं तस्य विक्रयणं कृत्वा धेनुः क्रेष्यामि अत्र धेनुः इति पदं दत्तमस्ति धेनुः इति अत्र विभक्तिः का वदति महोदय
धेनुः इति पदस्य विभक्ति द्वितीया विभक्ति बहुवचनं
सुन्दरं द्वितीया विभक्ति बहुवचनं प्रथमा विभक्ति बहुवचनं किं
धेनवः
उत्तमं सुन्दरम् इत्युक्ते अत्र धेनुः धेनू धेनवः परन्तु अत्र धेनुः क्रेष्यामि किमर्थं चेत् अत्र धातुः सकर्मकधातुः अतः क्रीणामि इति धातुः अत्र सकर्मकधातुः अतः धेनुः इति पदं द्वितीया विभक्त्यन्त बहुवचनरूपं सः किं कर्तुमिच्छति अजसमूहं विक्रीय धेनूं धेनुः क्रेतुमिच्छति अनन्तरं ताः विक्रीय महिषीः अत्र ताः इत्युक्ते काः महोदय
धेनवः
धेनवः धेनुः अत्र ताः विक्रिय इत्युक्ते धेनुः विक्रिय तेषां विक्रयणं कृत्वा अहं पुनः तां धनम् उपयुज्य तद्धनम् उपयुज्य महिषीः क्रेष्यामि. तत्र महिषीः इत्युक्ते किम्
इति बफेलो
बफेलो अत्र महिषीः इति पदस्य विभक्तिः वचनं किम्
महिषिः इति पदस्य विभक्तिः द्वितीया वचनं बहुवचनं
सुन्दरं तावदेव महिषीः क्रेष्यामि अत्र विक्रीय इति पदं पुनः पुनः आगच्छति अत्र विक्रीय इति पदं ल्यबन्तपदं ल्यप्रत्ययान्तपदं वि इति उपसर्गः यदा कदापि उपसर्गः अस्ति चेत् तत्र त्वान्तरूपस्य स्थाने ल्यबन्तरूपम् आगच्छति विक्रीय इति पदं ल्यबन्तरूपं किमर्थम् इत्युक्ते तत्र धातोः पूर्वम् उपसर्गः अस्ति वि इति उपसर्गः संस्कृतभाषायां द्वाविंशतिः उपसर्गाः सन्ति सः महिषीः क्रेतुमिच्छति तदनन्तरं ताः विक्रीय ताः महिषीः विक्रीय तेषां विक्रयणं कृत्वा सः अश्वान् क्रेतुमिच्छति अश्वान् अश्वः अत्र प्रथमाविभक्त्यन्तरूपम् अश्वान् द्वितीया बहुवचनरूपम् अश्वान् क्रेष्यामि अत्र क्रेष्यामि इति पदं पुनः पुनः आगच्छति क्रेष्यामि इति भविष्यत्कालरूपम् अत्र तने महोदय अग्रिमं वाक्यं पठतु तान् अपि विक्रीय
तान् अपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि
अत्र सम्पादयिष्यामि एतदपि भविष्यत्कालरूपम् अत्र अश्वान् च अश्वानां विक्रयणं कृत्वा सः यथेष्टं धनं सम्पादयितुम् इच्छति अत्र यथेष्टम् इति पदमस्ति वयं जानीमः अत्र यत् इष्टं वयं जानीमः अत्र पदद्वयमस्ति यथा योगः इष्टं यथेष्टम् अत्र सन्धिः अस्ति गुणसन्धिः सः अश्वान् विक्रीय यथेष्टं धनं सम्पादयिष्यामि एतादृशरीत्या सः केवलं तत्र चिन्तयति सः ब्राह्मणः दरिद्रः ब्राह्मणः एतत् न अभवत् परन्तु केवलं स्वप्नावस्थायां स्थित्वा सः मनोजल्पनं करोति डे ड्रीमिङ्ग् करोति अत्र केवलं मनोजल्पनम् इति वदामः
अत्र इष्टं पदस्य अर्थः बहूनि
अधिकम् यथेष्टं यथा योगः इष्टं यथेष्टम् अत्र अस्मिन् वाक्ये यथेष्टम् इत्युक्ते अधिकं धनं सम्पादयिष्यामि इति अर्थः अनन्तरं बृहत् गृहं निर्मापयिष्यामि अत्र गृहम् इति पदं नपुंसकलिङ्गपदं तदर्थं तत्र बृहत् इति पदं तस्य विशेषणं बृहत् इति पदं विशेषणम् इति कृत्वा त्रिषु लिङ्गेषु भवति कथं पुंलिङ्गे वदामश्चेत् बृहान् ग्रन्थः इति वदामः त्रिलिङ्गे वदामश्चेत् बृहती सङ्ख्या इति वदामः अपि च नपुंसकलिङ्गे वदामश्चेत् बृहत् गृहम् इत्युक्ते तत्र बृहत् इति पदं त्रिषु लिङ्गेषु सम्भवति किञ्चित् परिवर्तनं भूत्वा त्रिषु लिङ्गेषु सम्भवति अत्र गृहम् इति पदं नपुंसकलिङ्गपदम् इति कृत्वा बृहत् गृहं निर्मापयिष्यामि अत्र निर्मापयति सः न निर्माति अत्र निर्मापयिष्यति पश्यन्तु अत्र निर्मापयति इति पदं निजन्तपदम् इति वदामः सः स्वयं न निर्माति गृहं निर्माति वा वदतु अने महोदय
पुनः वदतु भगिनि
अत्र निर्मापयिष्यामि इति पदमस्ति अत्र निर्मापयति इति लट्लकाररूपं परन्तु अत्र सः ब्राह्मणः सः स्वयं न निर्माति सः निर्मापयति
आम्
अत्र पश्यन्तु ही इस् नाट् गोयिङ्ग् टु बिल्ड् द हौस् ही विल् मेक् द हौस् बिल्ड् तदर्थमेव अत्र निर्मापयिष्यामि इति दत्तमस्ति. अत्र निर्मापयिष्यामि इति अपि भविष्यत्कालरूपम्. अहम् एकं बृहत् गृहं निर्मापयिष्यामि. उत्तमम्. अग्रिमं वाक्यं वदतु.
तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति.
इत्युक्ते किं वदतु?
तदा आफ्टर् हेविङ्ग् अक्वायर्ड् आल् द वेल् ही विल् गिव् हिस् ब्यूटिफुल् डाटर् टु सम् ब्राह्मण्
मह्यं दास्यति. इत्युक्ते यदा यदा अहं धनिकः भवामि तदा एक अन्यः ब्राह्मणः कश्चित् ब्राह्मणः मम पार्श्वे आगत्य तस्य रूपवतीं स्वकन्यां स्वपुत्रीं मह्यं दास्यति. अत्र ददाति वयं जानीमः, ददाति इति पदस्य भविष्यत्कालरूपम् एव दास्यति. कस्मै दास्यति? मह्यं दास्यति. रूपवतीं कन्यां स्वकन्यां मह्यं दास्यति एकः ब्राह्मणः आगत्य. तदनन्तरं किं भवति वदतु?
अनन्तरं मम पुत्रः जनिष्यते.
जनिष्यते. अनन्तरं मम तत्र विवाहानन्तरं मम पुत्रः जनिष्यते. जनिष्यते इति अपि रुट्लकाररूपम्. अत्र जायते लट्लकाररूपं जायते इति पदस्य रूपमेव जनिष्यते. तत्र जन् इति धातुः, जन् धातोः लट्लकाररूपं जायते. मम पुत्रः जायते. परन्तु सः चिन्तयति, तदर्थम् अत्र भविष्यत्कालरूपं दत्तमस्ति. मम पुत्रः जनिष्यते. तस्य नाम किम्?
देवशर्मा तस्य नाम.
देवशर्मा इति तस्य नामकरणं करिष्यामि. अनन्तरं किं चिन्तयति सः?
यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि.
इत्युक्ते अत्र जानु इति पदमस्ति. जानुभ्यां चलितुं समर्थः. कः समर्थः अत्र? कस्मिन् विषये सः चिन्तया वदति?
जानुभ्यां चलितुं समर्थः
कः?
ब्राह्मणः. नो नो
अत्र सः सः अत्र यः यदा सः इति दत्तमस्ति. यदा सः जानुभ्यां चलितुं समर्थः भविष्यति. अत्र सः अस्मिन् वाक्ये सः इत्युक्ते कः?
पुत्रः.
पुत्रः ब्राह्मणस्य पुत्रः. तस्य पुत्रः, तस्य पुत्रस्य नाम देवशर्मा. देवशर्मा इति नामकरणं करोमि. तदनन्तरं सः देवशर्मा जानुभ्यां चलितुं समर्थः भविष्यति. जानुभ्यां, जानु इत्युक्ते उत्तमं वदतु. इत्युक्ते सः बालकः जानुभ्यां चलितुं समर्थः भवति तदा तस्मिन्नेव समये अहम् अश्वशालायां पुस्तकं पठिष्यामि. अश्वशालायां विभक्तिः का महोदय वदतु?
अश्वशालायां सप्तमी विभक्ति, एकवचन.
एकवचन, उत्तमम्. अश्वशाला, अश्वशालायां. यदा सः समर्थ जानभ्यां चलितुं समर्थः भवति तदा अहं पुस्तकं पठिष्यामि. तदा देवशर्मा जानभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति. अत्र किम् अस्ति महोदय वदतु? अस्मिन् वाक्ये किं वदतु?
अस्मिन् वेन् हिस् सन् देव् शर्मा विल् कम् नियर् हिम् वाकिङ्ग् आन् हिस् ओन् लेग्स् देन् तदा उद्युक्तः अर्थः अहं न जानामि.
उद्युक्तः इत्युक्ते सः ब्राह्मणस्य समीपम् आगन्तुं प्रयत्नं करोति. सः बालकः उद्युक्तः
उद्युक्तः इत्युक्ते अत्र सः तस्य समीपम् आगन्तुं प्रयत्नं करोति.
उद्युक्तः इति इत्युक्ते प्रयत्नं
रेडि रेडि इत्युक्ते उत् उपसर्गपूर्वकः युक्तः इति अहं चिन्तयामि. तत्र उद्युक्तः उत् उपसर्गपूर्वकः युक्तः अत्र युक्तः इत्युक्ते अत्र रेडि टु डु दाट् इत्यस्मिन् अर्थे. यदा सः बालकः जानुभ्यां चलन् चलन् इति पदम् अस्माकं कृते नूतनं पदं चलन् इति पदं शत्रन्तरूपम् इति वदामः शत्रन्तप्रयोगः इति वदामः इत्युक्ते एकस्मिन् एव समये क्रियाद्वयं सम्भवति तदा चलन् गच्छन् पठन् तुम्लिङ्गे शत्रन्तरूपम् इति वदामः. देवशर्मा जानभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति तदा सः किं करोति ब्राह्मणः
तदा तं बालं ग्रहीतुं तस्य मातरम् आज्ञापयिष्यामि.
तं बालं यदा सः बालकः मम पार्श्वे आगन्तुम् उद्युक्तवान् तदा अहं तस्य मातरम् आज्ञापयिष्यामि. किमर्थम् आज्ञापयिष्यामि आज्ञापयिष्यति किमर्थम्
आज्ञापयिष्यामि
तं बालं ग्रहीतुं
he will hold the child take the child
to
and call his mother
वदतु
he will call his mother to take the child
तदेव इत्युक्ते अहं तस्य मातरं आज्ञापयिष्यामि बालं ग्रहीतुं देवशर्मणं ग्रहीतुम् अहं तस्य मातरम् आज्ञापयिष्यामि. तदा किं भवति यदा सा मम वचनं न श्रोष्यति अहं पुनः पृच्छामि पुनः आह्वयामि परन्तु सा मम वचनं तस्य माता मम वचनं न श्रोष्यति तदा अहं किं करोमि कोपेन पादप्रहारेण तां दण्डयिष्यामि. मातरं ताडनं करोमि मातरं पादप्रहारेण तदा मम कोपः आगच्छति कोपमागच्छति तदा अहं पादप्रहारेण तस्य मातरं दण्डयिष्यामि इति सः चिन्तितवान्. एतत् सर्वमपि पादप्रहारेण इत्युक्ते वदतु महोदय
पादप्रहारेण इस् एङ्ग्रि वर्ड्
ताडनं पादेन ताडनं करोमि प्रहारः इत्युक्ते अत्र हिट्टिङ्ग् आर् किकिङ्ग् आर् अटाकिङ्ग् आर् समथिङ्ग्
वित् लेग्स् पादः पादप्रहारेण वित् लेग्स्
वित् लेग्स् पादप्रहारेण अत्रापि समासः अस्ति अत्रापि समासः अस्ति. कोपेन इति पदं विभक्तिः का तत्र
तृतीया विभक्ति
पादप्रहारेण अपि
तृतीया विभक्ति
अत्र णत्वमस्ति किमर्थं प्रहारः प्रहारेण किमर्थम् इत्युक्ते अत्र रेफः अस्ति इति कारणतः णत्वं भवति. पादप्रहारेण तां दण्डयिष्यामि कां दण्डयिष्यति सः
मातरं
दण्डयिष्यति तथा एतत् सर्वं सः चिन्तयति. एवं चिन्तयन् सः पादप्रहारं कृतवान् एव. एतत् सर्वं सः दरिद्रः ब्राह्मणः घटमेव पश्यन् अस्ति आसीत् तदनन्तरं सः एतत् सर्वं चिन्तितवान् तदनन्तरं सः साक्षात् किं कृतवान्
पादहारं कृतवान्
पादप्रहारं कृतवान् एव इत्युक्ते किम्
ओन्लि
हि आलरेडि हि थाट् अबौट् इट् अण्ड् हि आलरेडि डिड् इट् इत्युक्ते अत्र एतावत्पर्यन्तं सः केवलं चिन्तितवान् एव परन्तु चिन्तनस्य अनन्तरं सः पादप्रहारं कृतवान् एव. तेन किं भवति
तेन पिष्टेन पूर्णः घटः पतितः भग्नः च
तेन पादप्रहारेण पिष्टेन पूर्णः घटः पतितः भग्नः अधः पतति अपि च भग्नः अभवत् तेन किं भवति तत्र पिष्टेन पूर्णं घटं सर्वं नष्टम् अभवत् तदर्थम् अस्य कथायाः नाम अस्ति नष्टः पिष्टघटः अत्र उत्तमं सुबर महोदय भवान् पठतु अत्र अन्तिम अन्तत धन्यवादः तनय महोदय सुबर महोदय श्लोकः अस्ति श्लोकं पठतु
अनागतवतीं चिन्तं चिन्ताम् असम्भव्यं करोति या करोति यः स एव पाण्डुरः शेते देवशर्मपिता यथा
अत्र श्लोकः अस्ति श्लोकः इत्युक्ते अत्र कथायाः विषये एव अयं श्लोकः अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः सः एव पाण्डुरः शेते देवशर्मपिता यथा इति अत्र श्लोकः अस्ति श्लोकः कथायाः विषये एव तत्र दत्तमस्ति अत्र अन्वयं रचयामश्चेत् अन्वयवाक्यं रचयामश्चेत् श्लोकः अस्ति चेत् सर्वदा अन्वयवाक्यं रचनीयः अत्र अन्वयं वदामश्चेत् किं वदामः यः कोऽपि यः अनागतवतीम् असम्भाव्यां चिन्तां करोति चेत् सः एव देवशर्मपिता यथा पाण्डुरः भवति तथा वक्तव्यम् अत्र इत्युक्ते अत्र यः कोऽपि डे ड्रीमिङ्ग् करोति चेत् डे ड्रीमिङ्ग् कुर्मः चेत् किमपि न भविष्यति अत्र अन्ततो गत्वा पिष्टेन पूरितः घटः भग्नः अभवत् तदा सर्वं पूर्णं पिष्टं सर्वं तस्मिन् शरीरे अपतत् इत्युक्ते अत्र देवशर्मा इदानीं पर्यन्तं सः केवलं चिन्तितवान् अस्ति अत्र साक्षात् सः पादप्रहारं कृतवान् तदर्थं तत्र पिष्टेन पूर्णं घटं भग्नः पूर्णः घटः भग्नः अभवत् अत्र कथा अवगतवन्तः वा सर्वे अत्र सर्वे अवगतवन्तः वा अत्र इत्युक्ते अत्र किमस्ति अनागतवतीम् अत्र श्लोके किं दत्तमस्ति अनागतवतीम् इत्युक्ते इदानीं पर्यन्तं यत् न आगतं तस्मिन् विषये चिन्तां कुर्मः चेत् अथवा असम्भाव्यां चिन्ताम् इत्युक्ते यत् न सम्भवति तस्मिन् विषये अपि वयं सर्वदा चिन्तनं कुर्मः चेत् किं भवति यः तथा करोति तथा तस्याः स्थितिः कथं भवति देवशर्मपिता इव एव भवति तदेव तस्य अर्थः अधुना कालातीतः अभवत् सर्वे एकवारं कथां पुनः पठन्तु यदि भवन्तः न अवगतवन्तः चेत् अग्रिमे सप्ताहे एकवारं चिन्तनं कुर्मः सर्वे कथायाः नीतिः का इत्यस्मिन् विषये त्रीणि वाक्यानि रचयन्तु गृहपाठं प्रेषयिष्यामि सर्वे गृहपाठरूपेण कथायाः नीतेः विषये त्रीणि वाक्यानि रचयन्तु अधुना समापयामः सर्वेषां धन्यवादः
धन्यवादः
पुनर्मिलामः
धन्यवादः भगिनि
धन्यवादः
धन्यवादः भगिनि
धन्यवादः